अष्टदशमन्त्रस्य शाङ्करभाष्य। हे अग्ने, नय गमय सुपथा शोभनेन मार्गेण, सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थं, निर्विरोऽहं दक्षिणेन मार्गेण गतागतलक्षणेनान्तो याचे त्वां पुनः पुनर्गमना गमनवर्जितेन शोभनेन पथा नय। राये धनाय कर्मफलभोगायेत्यर्थः अस्मान्यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव वायुनानि कर्माणि प्रज्ञानानि वा विद्वान् जानन्। किञ्च युयोधि वियोजय विनाशय अस्मदस्मत्तो जहुराणं कुटिलं वञ्चनात्मकेन पापं, ततो वयं विशुद्धाः सन्त इष्टं प्राप्स्याम इत्यभिप्रायः। किन्तु वयम् इदानीं ते न शक्नुमः परिचर्यां कर्तुम्। भूयिष्ठां बहुतरां ते तुभ्यं नम उक्ति नमस्कार वचनं विधेम नमस्कारेण परिचरेम इत्यर्थः। अविद्यया मृत्युं तीर्त्वा विद्यायाम् अमृतं स्नुते, विनाशेन मृत्युं तोत्वसम्भूत्यामृतं स्नुते इति श्रुत्वा केचित् संशयं कुर्वन्ति। अतस्सन्निराकरणार्थ संक्षेपततो विचारणां करिष्यामः। तत्र तावकिन्निमित्तः संशयः इत्युच्यते। विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्येते अमृतत्वञ्च, ननुक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात् समुच्चयानुपतति। सत्यं विरोधमस्तु नावगम्भ्यते विरोधाविरोधयोः शास्त्रप्रमाणकत्वात्। यथा विद्या अनुष्ठानं विद्योपासनञ्च शास्त्रप्रमाणकं, तथा तद्विरोधाविरोधावपि। यथा च न हिंस्यात् सर्वा भूतानीति शास्त्रादवगतं, पुनः शास्त्रेणैव बाध्यते अध्वरे पशुं हिंस्यादिति। एवं विद्या विद्योरपि स्यात् विद्या कर्मणोश्च समुच्चयः। न दूरमेते विपरीते विशूचि अविद्या या च विद्या इति श्रुतेः। विद्यां च विद्यां चेति वचनादविरोध इति चेत् न हेतुस्वरूपफलविरोधात्। विद्या अविद्याविरोधाविरोधयोर्विकल्पासम्भवात् समुच्चयविधान आद्य विरोध एवेति चेत् न सहसम्भवानुपपत्ते क्रमेणैकाश्रये स्याताम विद्या विद्ये इति चेत्। न विद्योत्पत्तौ अविद्याय ह्यस्त्वात्तदाश्रये अविद्याम् अनुपपत्तेः। न ह्यग्निरुष्णः प्रकाशश्चेति विज्ञानोत्पत्तैः यस्मिन्नाश्रयेह तदुत्पन्नं तस्मिन्नेवाश्रये शीतो अग्निप्रकाशो व्यत्य विद्याया उत्पत्तिर्नापि संशयो अज्ञानं वा। यस्मिन् सर्वाणि भूतान्यातभैवाभूद्विजानतः, तत्र को मोहः कः शोक एकत्वम् अनुपश्यतः इति शोकमोहाद्यसम्भवश्रुतेः अविद्यासम्भवात्तदुपादानस्य कर्मणो अप्यनुपापत्तिम् अवोचाम अमृतम अश्नुत इत्यापेक्षिकम् अमृतम् विद्याशब्देन परमात्मविद्याग्रहणे हिरण्यं येनेत्यादिना द्वारमार्गदीयाचन उपपन्नं स्यात् तस्मादुपासनया समुच्चयो न परमात्मविज्ञानेति यथास्माभिव्याख्यात एव मन्त्रणामर्थ इत्युपरम्यते।